अनेक
प्रीतिं भक्त
लीला तथा आरम्भ करोतु
लीला कललुलल्लोला कालव्यालविलासिने गणेशाय नमो नीलकमलामलकान्तये
अरना इदं त्वमपि गाय हा लीला कललुलल्लोल गायतु अरना
कललुलल्लोल कालव्यालविलासिने गणेशाय नमो नीलकमलामलकान्तये
उत्तमं तर्हि अरुणा युह लिखितवती वा लेखनपुस्तिकायाम् इदं मङ्गलं यु हेव् यु रिटन् इट् डौन् इन् युर् लेखनपुस्तिका
नो बट् ऐ नो नो
उत्तमं तर्हि स्मरणे अस्ति वा यु हेव् इट् इन् युर् दिस् मेमरि स्मरणे अस्ति उत्तमम् एकवारं पुनः गायति वा अरुणा एकवारं पुनः गाय
लीलागलुलल्लोल कालव्यालविनाशिनी गणेशाय नमो नीलकमलामलकान्तये
उत्तमम् अग्रे अग्रिमम् अलेख्य
भक्तजनस्य यो जनयते विघ्नं विनिघ्नं स्मृतः तं वृन्दारकवृन्दवन्दितपदं नत्वा गत्वा मतङ्गाननं पापीं सद्गणितस्य वच्मि चतुर प्रीतिप्रदां प्रस्फुटां संक्षिप्ताक्षरकोमलामलपदैः लालित्यलीलावतीम्
उत्तमम् अत्र प्रस्फुटां प फ फ महाप्राणः अस्ति खलु तर्हि प्रस्फुटां वदतु
प्रस्फुटां
न फ प्रस्फुटां
प्रस्फुटां
फ महाप्राणः अरुणा अभ्यासः अस्ति वा अस्य नास्ति तर्हि अनुगायतु प्रीतिं भक्तजनस्य
प्रीतिं भक्तजनस्य
योजनयते
योजनयते
विघ्नं विनिघ्नं स्मृतः
विघ्नं विनिघ्नं
स्मृतः तं वृन्दारक
तं वृन्दारक
तं वृन्दारक
तं वृन्दाकर
रक 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 पद रक तं वृन्दारक
तं वृन्दारक
वृन्दवन्दितपदम्
वृन्दवन्दितपदम्
नत्वा मतङ्गाननम्
नत्वा मतङ्गाननम्
पाटिं सद्गणितस्य
गणितस्य
वच्मि चतुरा
वच्मि चतुरा
प्रीतिप्रदां प्रस्फुटां
प्रीतिं प्रस्फुटां
प्रीतिप्रदां पुनः
प्रीतिप्रदां प्रीतिप्रदां
प्रस्फुटां
प्रस्फुटां
अत्र ट अल्पप्राण अस्ति महाप्राण इदं फकार टकारे नास्ति प्रस्फुटां
प्रस्फुटां
नो नो वाट् यु आर् डूङ्ग् इस् यु आर् डूङ्ग् महाप्राण इन् द टकार एण्ड् नाट् फकार प्रस्फुटां ट ट इस् अल्प सिट सिट ट तथैव प्रस्फुटां
प्रस्फुटां
no just this do that abhyas later on sankshiptakshara
sankshiptakshara
komalamalapadaihi
कोमलापदैः
कोमलामलपदैः
कोमलापदैः
विडुद अभ्यास आप्तद वर्ग कोमला पद कोमला
कोमला
मल
मल
पदैः
पदैः
हा कोमला मल पदैः स्लोली से स्लोली मल लालित्य लीलावतीं
लालित्य लीलावती
तर्हि वाट् यु डू डू द अभ्यास स्टार्ट् सिङ्गिङ्ग् दिस् ओके वाच् द रेकार्डिङ्ग् अण्ड् ट्रै टु सिङ्ग् इट् ओके अर्णा अस्तु अग्रे सर् अय्योपि आम् इदानीं विल् टु लुक् एट् सङ्ख्यास्थाननिर्णयः खलु गतवर्गस्य सूत्रस्य आरम्भः कृतः अर्णा गतवर्गे न आसीत् खलु अर्णा यु आर् नाट् देर् इन् द लास्ट् वर्गः रैट् वर् यु देर् यु आर् देर् डिड् यु सी मुद्रणं डिड् यु सी द रेकार्डिङ्ग् गुड् okay so you remember must have seen this now this prathama pada is already done all of you sing atha
atha
sankhya sthana nirnayah
sankhya sthana nirnayah
na na sankhya
sankhya
sthana
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 nirnayah Arna, when you're saying sthana, your Mahaprana is coming sakara. Sakara is not, you're not going to do, you just have to say stha. Stha. Say stha.
Stha.
Stha. Atha.
Atha.
Sankhya.
Sankhya.
Sthana nirnayah.
Sthana nirnayah.
Sthana nirnayah. अरे सकार इज नॉट हर्ड देर इज अ सकार वेन यू सिंग यू सिंग ओनली स्थान देर इज सकार है ना स्थान निर्णय
स्थान
निर्णय अगेन द सेम थिंग देर इज यू आर नॉट सेइंग द सकार स्थान से स्थान
स्थान
ना डू योर मदर इज देर क्लोज बाय
नो
भवतु बट् यु आर् मेकिङ्ग् अ मिस्टेक् योर् सकार इस् नाट् हर्ड् से स्था स्था स्थान अस्तु अग्रे सर्वे एकदशशत
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 सहस्रायुत
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 लक्षप्रयुत
लक्षप्रयुत
कोटयः
कोटयः
क्रमशः
क्रमशः
पुनः एकदशशत
एकदशशत
दशशत पुनः अर्णा
एकदशशत
दशशत सहस्रायुत
सहस्रायुत
लक्षप्रयुत
लक्षप्रयुत
कोटयः
कोटयः
क्रमशः
क्रमशः
इदानीं किञ्चित् इतोपि अधिकं गायामः एकदशशतसहस्रायुत
एकदशशतसहस्रायुत
लक्षप्रयुतकोटयः
लक्षप्रयुतकोटयः
क्रमशः
क्रमशः
इदानीं प्रथमं पङ्क्तिम् अहं गायामि सम्पूर्णं गायामि एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः अलेख्य गाय
एकदशशतसहस्रायुतलक्षप्रयुतकोटयः कोटयः
क्रमशः
क्रमशः
अर्णा प्रयत्नं करोतु स्लोलि अर्णासि डोण्ट् गेट् स्केर्ड् स्लोलि शनैः शनैः गायतु हा एकदश यु टेक् टेक् लाङ्गर् टैम् हा से
एकदशशतसहस्रायुत
से सहस्रायुत
सहस्रायुत
लक्षप्रयुत
लक्षप्रयुत
कोटयः
कोटयः
क्रमशः
क्रमशः
इदानीं स्वयं गायतु
एकदशशतसहस्र
एकसहस्रायुत लक्षप्रयुत
लक्षप्रयुत कोटय
कोटयः
कोटयः
क्रमशः
क्रमशः
अस्तु अर्णा अभ्यासं करोतु वा गायनस्य अभ्यासं करोषि वा विल् यु सिङ्ग् ट्रै टु डु द सिङ्ग् पार्ट् एट् होम् लेटर् आन् उत्तमम् इदानीं किञ्चित् इतोपि अधिकम् अद्य स्वीकुर्मः अर्बुदमब्जं सर्वे गायन्तु अर्बुदमब्जम् अर्बुदमब्जम् खर्वनि खर्म खर्वनि खर्व महापद्मा
महापद्मा
शङ्कवस्तस्मात् शङ्कवस्तस्मात् पुनः अर्बुदमब्जम्
अर्बुदमब्जम्
खर्वनि खर्व
खर्वनि खर्व
क नास्ति ख महाप्राण खर्वनि खर्व
खर्वनि खर्व
महापद्मा
महापद्मा
शङ्कवस्तस्मात् इदानीम् अहम् अर्धं गायामि पश्यन्तु अर्बुदमब्जं खर्वनि खर्व गायन्तु
अर्बुदमब्जं खर्वनि खर्व
आम् महापद्मा शङ्कवस्तस्मात्
महापद्मा
शङ्कवस्तस्मात् शङ्कवस्तस्मात् इदानीम् अहं पूर्णं पङ्क्तिं गायामि पश्यन्तु अर्बुदमब्जं खर्वनि खर्व कम्प्लीट् पार्ट् अर्बुदमब्जं खर्वनि खर्व महापद्मा शङ्कवस्तस्मात् गायन्तु एकैकः आदौ अलिख्य
अर्बुदमब्जं
खर्वनि अर्बुदमब्जम् अलिख्य अर्बुदमब्जम्
अर्बुदमब्जम्
एकनिमिषः तेजस्मि स्क्रीन्
अर्बुदमब्जम्
अर्बुदमब्जम्
अर्बुदम अर्बुद
अर्बुदमब्जम् अर्बुद
अर्बुद
धन अर्बुद अल्पप्राण अर्बुद
अर्बुद
मब्जम्
मब्जम्
अर्बुदमब्जम्
अर्बुदमब्जं खर्वनि खर्म खर्वनि खर्व
महापद्मा
महापद्मा
शङ्कवस्तस्मात्
शङ्कवस्तस्मात्
इदानीम् अर्णा प्रयत्नं करोति वा अर्णा अर्बुदमब्जम्
अर्बुदमब्जम्
खर्वनि खर्व
खर्वनि खर्व
महापद्मा
महापद्मा
शङ्कवस्तस्मात् अस्तु तर्हि गतवर्गे वयं तत्र अस्तु we had written down right ekadasha do you in your lekhan pustika do you have it written maybe tari tatra itopi lekhanam kurmah va just a minute so what do you have to add now alekhya can you read out what you have written ek then what you have written down ek then what
ek
dash ha then
dash
shatna shata is written right what is it shata hello ha
shata sahasra
sahasra sakara yoga repha hello sra sahasra then
sahasra aika laksha prayuta koti
then yeah
that's it
that's it, right so up to after ekasya anantaram kati shunyani in the largest sankhya how many number shunya you have ayyo I deleted this go to after one how many shunyani are there count
one
एकं तु एकं ते एकम् अन
एकं
द्वे
द्वे
त्रीणि
त्रीणि
चत्वारि
चत्वारि पञ्च
पञ्च
षट्
सप्त सप्त एव खलु कोटिमध्ये कति शून्यानि अस्तु जस्ट् हेड् ओपन्ड् अस्तु तर्हि ततः अग्रे लेखनम् आवश्यकं खलु तर्हि लिखामः इदानीं लेखनपुस्तिकायां लिखन्तु वा तर्हि किं लेखनीयम् इदानीम् एकस्य अनन्तरं कति शून्यानि भवेत् कति गणयतु एकम्
एकं
द्वे त्रीणि चत्वारि
पञ्च
षट् सप्त अष्ट खलु इदानीम् अष्टशून्यानि भवन्ति तर्हि एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट तर्हि सङ्ख्यायाः नाम किम् अर्बुद खलु पश्यतु अस्माकं सूत्रे किमस्ति पश्यतु एकदश लक्ष प्रयुक्त कोटिपर्यन्तम् अभवत् अर्बुदं खलु तत्र एकस्य अनन्तरम् अष्टशून्यानि अष्ट खलु अर्बुद वयं इदानीं किं लिखामः विल् जस्ट् रैट् अर्बुद विल् नाट् रैट् अम् ओके विल् ओन्लि रैट् द अर्बुद जस्ट् टु गेट् रिमेम्बर् remember it arguda arna likhanti asti khalu arna uttam arguda anantram arguda abjam remember now arguda abjam actually the word is arbudam and then abjam okay but we'll only just to remember we'll write it as arbuda and now abja just as it is written here utrasti arbuda abja kitam asti kulu arbuda abja tatheva kharva nikharva tri idanim abja madhe kati shunyani arana vada kati shunyani ekam अण द्वे
त्रीणि
चत्वारि पञ्च षट् सप्त अष्ट नव खलु तर्हि नव शून्यानि अर्बुद अब्ज लिखतु अब्ज बकार योग जकार खलु हौ इट् इस् रिटन् दे बकार एतादृशं लिखामः ज अब्ज अग्रे किम् अर्बुदमब्जम् अर्बुदमब्जं खर्वनि खर्व खलु अग्रे किं से अग्रिमसङ्ख्या अस्ति खर्व तर्हि खर्वसङ्ख्यायां कति शून्यानि भवेत् एकं गणयन्तु से स्टार्ट् एकं
द्वे
त्रीणि
त्रीणि
चत्वारि
चत्वारि पञ्च
पञ्च
षट्
षट् सप्त अष्ट अर्णगणयतु नव
दश
दश खलु सप्त अष्ट नव अत्र दश शून्यानि अभवन् खलु करेक्ट् न तर्हि खर्व रैट् खर्व अग्रे किमस्ति खर्वनि खर्व तर्हि इदानीं कति शून्यानि भवेत् गणयन्तु एकं द्वे
द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश
एकादश खर्व निखर्व अग्रे किमस्ति अर्बुदम् अब्जं चास् प्लीस् सिङ्ग् अगेन् अण्ड् अगेन् अर्बुदम् अब्जं खर्वनि खर्व महापद्म किमस्ति पश्यन्तु अत्र खर्वनि खर्व महापद्म इस् वन् वर्ड् महापद्म शङ्कवस्तस्मात् तर्हि शङ्कवः मध्ये अस्ति शङ्कु तर्हि उकारस्य वकारः भवति बिकास् आफ् सम् अदर् रूल्स् दोस् रूल्स् विल् नाट् सी नौ बट् रिमेम्बर् इट् इस् शङ्कु ओके तर्हि महापद्म शङ्कु रैट् तर्हि इदानीम् एकस्य अनन्तरं कति शून्यानि भवेत्
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश
द्वादश खलु पश्यन्तु अत्र द्वादश महापद्ममध्ये एकस्य अनन्तरं द्वादश शून्यानि तर्हि महापद्म लिखन्तु पद्ममध्ये दकार योग मकार पद्म ओके सो बट् इन् द प्रिण्टिङ्ग् इट् कम्स् एस् दट् अल्फबेट् किम् इट् इस् हलन्त्यदकार खलु पद्म दकार योग मकार योग अकार खलु म मीन्स् वाट् मकार योग अकार दकार योग मकार योग अकार द्म अत्र टङ्कने वेन् यु डु दट् प्रिण्टिङ्ग् टैपिङ्ग् इट् कम्स् लैक् दिस् किम् इस् दट् पद्म तर्हि अस्माकं सूत्रे कुत्र पर्यन्तम् अभवत् इन् अवर् सूत्र टिल् वेर् वि हेव् गान् अर्बुदम् अब्जं खर्वनि खर्व महापद्म इदानीं किम् अवशिष्टं शङ्खवस्तस्मात् शङ्कु खलु शङ्कु इन् तस्मात् इस् नाट् एनी नम्बर् तस्मात् इस् जस्ट् द कम्प्लीशन् आफ् द पाद आफ्टर् देट् इट् सेज् आफ्टर् देट् ओके तर्हि इदानीं शङ्कु अवशिष्टः रैट् शङ्कु ऐ विल् नाट् रैट् द जीरो केन् यु आल् रैट् प्लीस् रैट् इट् डौन् इन् योर् टेक्स्ट् बुक् हौ कति शून्यानि भवेत् त्रयोदश शङ्कु शङ्कु हा शङ्कु मध्ये त्रयोदश मूलरूपं किमस्ति प्रथमाविभक्ति एकवचनं शङ्कुः शङ्कु प्रथमाविभक्ति एक वचनं शङ्कुः शङ्कुः शङ्कवः यथा वि हेव् नाट् डन् दिस् ऐ थिङ्क् उकारस्य वयं न कृतवन्तः यथा इकारस्य कृतवन्तः खलु कपिः कपि तथैव यथा पश्यतु कोटि अस्ति खलु कोटि कोटिः कोटिः वदतु कोटयः अस्ति खलु अस्माकं सूत्रे कोटयः पदम् अस्ति खलु बिकास् इट् इस् द लास्ट् वर्ड् इट् हेस् बिकम् बहुवचनम् इन्स्ट् आफ् कोटिः इट् हेस् बिकम् कोटयः प्रथमविभक्ति बहुवचनम् तर्हि शङ्कुः शङ्कू शङ्कवः यथा गुरुः गुरु गुरवः अस्ति खलु बहुवचने तथैव शङ्कुः शङ्कू शङ्कवः विल् बि बहुवचने ओके बट् हियर् इट् इस् इन् द मिडल् सो इट्स् ओन्लि एकवचनं शङ्कु वि विल् रैट् शङ्कु मूलरूपं यथा अत्र लिखितमस्ति पश्यतु शङ्कु लिखितमस्ति पश्यतु अत्र शङ्कु दिस् इस् नाट् द विभक्तिरूपम् इट् इस् जस्ट् द मूलरूपं शङ्कु इन्फाक्ट् इस् द प्रातिपदिकं त्रयोदश शून्यानि अस्तु अद्यपर्यन्तम् अस्ति सूत्रस्य पादद्वयं गीतवन्तः खलु वि हव् डन् फ्रोम् फस्ट् पाद अप् टु द सेकेण्ड् पाद रैट् तर्हि एकवारं गायनं कुर्मः वा अर्थस्य अथ सङ्ख्यास्थाननिर्णयः
अथ सङ्ख्यास्थाननिर्णयः
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 देर् इस् ककार निर्णयः
निर्णयः
आम् एकादशशतसहस्रायुत लक्षप्रयुतकोटयः क्रमशः
एकदशशतसहस्रायुत लक्षप्रयुत कोटयः क्रमशः
उत्तमम् अर्बुदमब्जम्
अर्बुदमब्जं खर्वणि खर्व
महापद्म
महापद्म
शङ्कवस्तस्मात्
शङ्कवस्तस्मात्
इदानीं द्वितीयपङ्क्ति पङ्क्त्याः गायनं करोतु सेकेण्ड् पाद द्वितीयपङ्क्ति
अर्बुदमब्जं कर्वणि कर्व महापद्मा
शङ्कवस्तस्मात् अर्ण करोतु द्वितीयपादस्य
अर्बुदमब्जं कर्वरि कर्वं महा
पद्मा
महापद्मा
शङ्कवस्तस्मात् तर्हि अद्य पर्याप्तम् अस्य गायनं गृहे कुर्वन्तु एव्रिडे गिव् 5 मिनिट्स् फार् संस्कृत् यु कुड् रीड् द सङ्ख्या फ्रम् 1 to 50 और् यु कुड् डु द सूत्र एव्रिडे गिव् 5 मिनिट्स् ओके अधुना अवगतम् अस्तु तर्हि अग्रे सरेम अद्य अनुष्टुप् छन्दस्य विषये पूर्वं वयं दृष्टवन्तः खलु पञ्चमं लघु सर्वत्र इन् अनुष्टुप् छन्द डु रिमेम्बर् अलिख्य दृष्टवन्तः खलु पञ्चमं लघु सर्वत्र स्मरति वा अलिख्य
पञ्चमं लघु सर्वत्र
विल् जस्ट् डू द गायनम् आफ् दिस् सूत्र विल् एक्स्प्लेनेशन् इस् इन् द नेक्स्ट् वर्ड् पञ्चमं लघु सर्वत्र
पञ्चमं लघु सर्वत्र
सप्तमं द्विचतुर्थयोः द्विचतुर्थयोः
द्विचतुर्थयोः
गुरुषष्ठं च पादानां
गुरुषष्ठं च पादानां
चतुर्णां
चतुर्णां
स्यादनुष्टुभिः
स्यारणंष्टुभिः
स्यादनुष्टुभिः स्यादनुष्टुभि आम् चतुर्णां स्यादनुष्टुभि स्यादनुष्टुभि
स्यादनुष्टुभि
अस्तु तस्य विषये किमर्थं तस्य विषये अग्रे सरे द्रक्ष्यामः अत्र पञ्चमं लघु सर्वत्र अस्य अवगतम् अस्ति खलु अलिख्य डु रिमेम्बर् इन् द अनुष्टुप् छन्द पञ्चमं लघु सर्वत्र सो विल् सी दिस् एकम् अयप्या किम् अयप्पा भगवान् अस्ति खलु तस्य एकं स्तुति अस्ति भूतनाथ सदानन्द सर्वभूतदयापर रक्ष रक्ष महाबाहो शास्त्रे तुभ्यं नमो नमः दिस् इस् आल्सो इन् अनुष्टुप् छन्द अनुष्टुप् छन्दस्य किं लक्षणं किम् आसीत् प्रत्येकस्मिन् पादे कति अक्षराणि अष्ट खलु केन् यु डु द कौण्टिङ्ग् एस् ऐम् सिङ्गिङ्ग् प्लीस् डु द कौण्टिङ्ग् आन् युवर् फिङ्गर् टिप्स् भूतनाथ सदानन्द डिड् यु कौण्ट् एट् अर्णा पुनः भूतनाथ सदानन्द एट् उच्चारणस्थानानि खलु अष्ट उच्चारणस्थानानि आम् तर्हि इदानीं पञ्चमं लघु सर्वत्र तर्हि अत्र पञ्चमम् अक्षरं किमस्ति भू प्रथम स द्वितीयः ना तृतीयः थ चतुर्थः पञ्चमः अक्षरः सकारः अस्ति खलु फिफ्त् सकारः खलु तर्हि सकार इस् लघु गुरु ह्रस्व अस्ति खलु लघु अस्ति खलु तर्हि पञ्चमं लघु पञ्चमं लघु सर्वत्र अगेन् इन् द नेक्स्ट् पाद प्लीस् डु द कौण्टिङ्ग् सर्वभूत दया पर अष्ट अभवत् तर्हि पञ्चमं किमस्ति एकं द्वे त्रीणि चत्वारि पञ्च पञ्चमम् अक्षरं किमस्ति दकार खलु ह्रस्व अस्ति वा गुरु अस्ति ह्रस्व अस्ति खलु लघु अस्ति खलु इट्स् वन् मात्राकार उच्चारणं किम् एकमात्राकार लघु लघु वा ह्रस्व द्विमात्राकार उच्चारणम् अर्थात् दीर्घ गुरु सो दिस् इस् ह्रस्व अगेन् तृतीयः पादः डू द कौण्टिङ्ग् रक्ष रक्ष महाबाहो कति अक्षराणि अर्णा 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 कति अभवत् अक्षराणि गणना अभवत् वा डू द कौण्टिङ्ग् वन्स् अगेन् से रक्ष 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 महाबाहो कति अभवन्
I got eight.
Eight, खलु अष्ट खलु अर्णा पञ्चमम् अक्षरं किमस्ति वद प्रथम प्रथमः द्वितीयः तृतीयः चतुर्थः पञ्चमः अक्षरः किमस्ति मकारः खलु से मकारः तर्हि अत्र मकारः यत् अस्ति पञ्चमः, तत् लघु अस्ति वा गुरु अस्ति, किं गुरु अस्ति वा लघु अस्ति, गुरु वा लघु, लघु खलु. पञ्चमा इस् वाट्, पञ्चमम् अक्षरं पुनः किम् अस्ति, लघु लघु. अन्तिमं पादे पश्यामः. शास्त्रे तुभ्यं नमो नमः, शास्त्रे द कौण्टिङ्ग्, शास्त्रे तुभ्यं नमो नमः. अष्ट अभवन्. पञ्चमः अक्षरः कः वद. शा प्रथमः, स्ते शास्त्रे, ते इस् द्वितीयः, तुभ्यं चतुर्थु तृतीयः, भ्यं चतुर्थः, पञ्चमः नकारः खलु. अगेन् लघु ह्रस्व अस्ति खलु. आम्, तर्हि यु गाट् द फस्ट् पार्ट् आफ् दिस् सूत्र. पञ्चमं लघु सर्वत्र, दट् मीन्स् इन् सर्वत्र मीन्स् वाट्, इन् आल् द फोर् पादास्. हौ मेनि पादास् देर् इस् देर् इन् एनि सूत्र? पादचतुष्टयं खलु, देर् आर् फोर् पादचतुष्टयं. तर्हि प्रत्येकस्मिन् पादे, इन् एव्रि पाद, द fifth akshara is always going to be what?
Lagu.
Lagu. Lagu. Astu. So we got this. Agre. Tari asmakam chaturthi vibhakti hai, vibhakti hai abhyasam kurma. Vatsa kim bhavet? Chaturthi vibhakti rupam? Vatsaya.
Vatsaya. Vatsaya.
Vatsaya. Bala. किं भवेत्? बाल.
बालाय बालाभ्यां
बालेभ्यः. उत्तरम्. आहार.
आहाराय आहारायाम् आहारेभ्यः.
समडी डिड् अ मिस्टेक्. अरुणा पुनः एकवारं वद. आहार.
आहाराय आहाराभ्याम् आहारेभ्यः.
आहाराभ्याम् आहारेभ्यः. उत्तमम्. इतोपि पाठालय, पाठालय अस्ति खलु स्कूल्, पाठालय करोतु, पाठालयः. तर्हि पाठालयाय,
पाठालयाय, पाठालयाभ्यां, पाठालयाभ्यः.
पाठालयेभ्यः,
पाठालयेभ्यः.
पुनः पुनः एकवारं. पाठालय विल् बि पाठालयेभ्यः. इदं विद्या, योगयकार, विद्या किं भवेत्?
विद्यायै,
विद्याभ्यां,
विद्याभ्यः.
अत्र आ अस्ति, अत्र विद्याभ्यः. पुनः माला.
मालाय,
मालायै,
मालायै, मालाभ्यां, मालाभ्यः,
मालाभ्यः. अर्णा, यदि इति लता अस्ति तर्हि किं भवेत्? लता. अयो, देट् इस् नाट् पुल्लिङ्ग, स्त्रीलिङ्ग अस्ति खलु, लताभ्यः. यथा विद्या, विद्याभ्यः. माला, मालाभ्यः. लता,
लताभ्यः.
अत्र एभ्यः कदा भवति? पुल्लिङ्गे. वत्स, वत्सेभ्यः. बाल, बालेभ्यः. वृक्ष, वृक्षेभ्यः. पुल्लिङ्ग बहुवचने वृक्षेभ्यः. स्त्रीलिङ्गे मालाभ्यः. प्रातिपदिकं किम् अस्ति? माला. आ अस्ति खलु, अतः मालाभ्यः. बालिका,
बालिकायै, बालिकाभ्याभ्यां, बालिकाभ्यः.
उत्तमम्. इदानीं नपुंसकलिङ्गे पुष्प, विल् डु फस्ट् पुष्प. पुष्प, पुष्प प्रथम प्रातिपदिकमस्ति खलु नपुंसकलिङ्गे तस्य प्रथमाविभक्तिरूपं किम् पुष्पं हा पुष्पे हा तर्हि प्रथमविभक्तिरूपाणि पुष्पं पुष्पे ओन्लि डोन् से पुष्पाणि से फुल् पुष्पं पुष्पे पुष्पाणि तस्य प्रातिपदिकं किम् अस्ति पुष्पम् इति पदस्य प्रातिपदिकं पुष्प अकारान्त नपुंसकलिङ्गः खलु अकारान्त वट् इस् लास्ट् अक्षर हियर् प मध्ये किम् अस्ति पकारयोग अकार अस्ति खलु प मध्ये अतः अकारान्त नपुंसकलिङ्गपदं हा तस्य चतुर्थी विभक्तिपदानि पुष्पाय तर्हि अस्य नपुंसकस्य पुल्लिङ्गवत् अस्ति खलु पुल्लिङ्गवत् अस्ति पुल्लिङ्गवत् मीन्स् वाट् इट् इस् लैक् सो इस् इट् लैक् पुल्लिङ्ग वत्साय वत्साभ्यां वत्सेभ्यः पुष्पाय पुष्पाभ्यां पुष्पेभ्यः समानमस्ति किल रूपम् इदानीं ज्ञानं ज्ञान तर्हि ज्ञान ज्ञानाय ज्ञानाभ्यां ज्ञानेभ्यः पुनः करोतु उत्तमम् इतोपि कोऽपि नपुंसकलिङ्गपदं स्वीकरोतु गृहं गृहे गृहाणि तर्हि गृहम् इति प्रथमाविभक्ति एकवचनं गृहम् अस्ति तस्य प्रातिपदिकं गृह खलु अकारान्तगृह तस्य चतुर्थी विभक्तिरूपाणि
गृहाय गृहाभ्यां गृहेभ्यः
आम् अरुणा जलं किं भवेत् नपुंसकलिङ्गजलं पद जल प्रातिपदिकं जल अरुणा
जलाय जलाभ्यां जलेभ्यः
उत्तमम् अस्तु तर्हि अग्रे सरेम इदानीं भ्राम्यति इति क्रियापदं दृष्टवन्तः खलु अर्थं किमस्ति स्मरति वा कोऽपि किमस्ति अर्थं व्याघ्रः आहाराय भ्राम्यति अर्थं किं भ्राम्यति हि सर्चिङ्ग् इन्फेक्ट् हि सर्चिङ्ग् एण्ड् बिकास् आफ् फैण्डिङ्ग् फुड् हीस् एक्चुलि वाण्डरिङ्ग् हियर् रैट् वाण्डरिङ्ग् इन् द फारेस्ट् रैट् दट् इस् अर्थ सर्चिङ्ग् इन् द सेन्स् आफ् वेण्डरिङ्ग् अस्तु तर्हि भ्राम्यति क्रियापदस्य नवरूपाणि वक्तुं शक्नोति वा अर्णा आदौ अलेख्य अदृष्ट्वा विदौट् सीन् केन् यु से नैन् फार्म्स् भ्राम्यति भ्रम् इति धातुः तस्य भ्राम्यति
अयं भ्राम्यति इमौ भ्राम्यतः इमे भ्राम्यन्ति
त्वं
भ्राम्यसि युवां भ्राम्यथः यूयं भ्राम्यथ अहं भ्राम्यामि आवां भ्राम्यावः वयं भ्राम्यामः
केवलम् अत्र यूयं द उकार यु सेड् एस् ह्रस्व यु सेड् इट् एस् लघु पुनः वद यूयं
यूयं
भ्राम्यथ उत्तमम् अर्णा एकवारं वदतु नवरूपाणि वाक्यसहित
अयं भ्राम्यति इमौ भ्राम्यथः इमे भ्राम्यन्ति त्वं भ्राम्यसि युवां भ्राम्यथः यूयं भ्राम्यथ अयं भ्राम्यामि अहं भ्राम्यामि आवां भ्राम्यावः वयं भ्राम्यामः
अर्णा एकवारं पश्यतु अत्र भ्राम्यथ इस् नाट् महाप्राण इट्स् त अल्पप्राण खलु पुनः से इमौ भ्राम्यतः
इमौ भ्राम्यथः
न यत् तकार इस् हर्ड् एस् थकार त थ महाप्राण द्वितीयवर्णः खलु त इस् प्रथमवर्णः भ्राम्यतः से
भ्राम्यतः
ta only say ta say ta
ta
ah you have to say taha say taha
taha
ah but when you are saying the complete word you are not saying taha say again imau इमौ भ्राम्यतः इमे भ्राम्यन्ति अस्तु इतोपि एकं क्रियापदमासीत् व्रजति अर्थं किं स्मरति वा कोऽपि वाक्यं दृष्ट्वा अन्यथा वद व्रजति अर्थं किं कुत्र अस्ति बालिका पुष्पाय उद्यानं व्रजन्ति अत्र बालिकाः अस्ति हा तर्हि बालिकाः पुष्पाय उद्यानं व्रजन्ति अर्थं किम् Boy, right? They are going to the garden to get flowers. Haro? For flowers, right? Pushpaya Vrajanti. Vrajanti means, artham tadra go dattam asti kulu, pustake? To go only, na? Kim asti dattam? Atra pashto, Vrajanti. To go. Bahuvachane asti. Prathama purush? Bahuvachane. तर्हि एकवारं नवरूपाणि वा वद अलिख्य इदानीं तद् इति प्रातिपदिकं से सः सः इस् वाट् तद् इति प्रातिपदिकं
सः व्रजति तौ व्रजतः ते व्रजन्ति त्वं व्रजसि युवां व्रजतः यूयं व्रजथ अहं व्रजामि आवां व्रजावः वयं व्रजामः
इदानीम् अत्र उत्तमपुरुषस्य वाक्यं स्वीकृत्य अत्र चित्रं दृष्ट्वा वयं वदामः इदानीं पश्यतु अत्र when we are looking at the vyagraha what we are saying ayam vyagraha aharaya bhramyati what will the tiger himself say about himself what he will say aham what he will say
aham
aharaya
aham aharaya
bhramyami khalo
bhramyami
aham bhramyami khalo so the tiger himself he will say what अहम् आहाराय भ्राम्यामि एण्ड् देन् वि आर् लुकिङ्ग् द टैगर् वाट् वि विल् से अहं तं दृष्ट्वा इमं नाट् तम् अहम् इमं खलु अयम् इमौ इमे अयम् इमौ इमे इमम् इमं तर्हि अहम् इमं दृष्ट्वा किं वदामि त्वम् आहाराय भ्राम्यसि वाट् विल् मै वाक्य विल् बि आहाराय भ्राम्यसि त्वं भ्राम्यसि अस्ति खलु अन्न अवगतं वारण एतादृशं वाक्यानि वदामः इदानीं पश्यतु धेनुः स्वस्य वाक्यं किं भवेत् धेनुः किं वदेत् What should you say? Aham. Say, aham. Vatsaya.
Aham vatsaya.
Kshiram.
Kshiram.
Vitarami.
Vitarami.
Hello. Vitarami.
Vitarami.
Idanim vayam, we looking at the dhenuho, what we will say to her? त्वं
धेनुः
न त्वं त्वं मीन्स् द धेनु इट्सेल्फ् खलु त्वं वत्साय
त्वं वत्साय
क्षीरं
क्षीरं वितरसि
वितरसि उत्तमं वितरसि खलु लुकिङ्ग् एट् हर् वाट् विल् से यु आर् गिविङ्ग् मिल्क् टु युर् चैल्ड् रैट् तर्हि त्वं वत्साय क्षीरं वितरसि अवगतं वा अग्रे अत्र इमे बालाः किं वदन्ति स्वस्य विषये वाट् दे विल् से अबौट् देम् सेल्स् वयं से
वयम्
अध्ययनाय
वयम् अध्ययनाय
पाठाय
पाठालयं गच्छामि.
न न गच्छामः खलु. वयं किं भवेत् पश्यत् अत्र पश्य वयं वयं भ्राम्यामः, वयं गच्छामः, वयं क्रीडामः खलु. तर्हि वयं किं भवेत् गच्छामः. तर्हि पुनः वाक्यं वद अलिख्या, वद वाक्यं. वयं
वयं वयम् अध्ययनाय पाठालयं गच्छामः.
थ महाप्राण पाठालयं से
पाठालयं
गच्छामः. अर्ण वयं
वयं अध्ययनाय पाठालयं गच्छावः.
अयो महा खलु, बहुवचनमस्ति खलु. पश्यतु भ्राम्यामः, व्रजामः, तर्हि गच्छ किं भवेत्? आम् इफ् इट् इस् टु आफ् देम् भ्राम्यावः गच्छावः, फोर् बहुवचनं मह. अस्तु तर्हि इदानीं एकनिमिष अत्र अस्माकम् अस्तु. तर्हि एकनिमिष ममपि किञ्चित् भ्रमः अभवत्. अयम् इमौ इमे, द्वितीयाविभक्ति इमम् इमौ इमान्. तर्हि इमान् बालान्, इदानीं वाक्यं सम्यक् शृण्वन्तु. इमान् बालान् दृष्ट्वा, बालान् का विभक्तिरूपम् अस्ति स्मरति वा अलिख्या? बालान् बालं बालौ बालान् द्वितीया खलु. बालं बालौ बालान् द्वितीया
बालान् द्वितीया.
तर्हि द्वितीयाविभक्ति बहुवचनं किमस्ति? बालान् खलु. लिसन् टु मै वाक्यं. तर्हि इमान् बालान् दृष्ट्वा खलु, लुकिङ्ग् एट् दीस् बाय्स् खलु. तर्हि इमान् मीन्स् इमान् इस् द्वितीयाविभक्ति बहुवचनम् आफ् विच् प्रातिपदिक? इदम् इति प्रातिपदिकम्. इदं प्रातिपदिकस्य प्रथमाविभक्तिरूपाणि कानि? अयम् इमौ इमे खलु. अयम् इमौ इमे प्रथमा गायन्तु. अयम् अयो एकनिमिष स्लोलि. अयम् इमौ
इमौ
इमे प्रथमा
प्रथमा.
द्वितीयाव्यक्तिरूपं किं भवेत्? इमम्
इमम्
इमौ
इमम् इमौ
इमान् द्वितीया
द्वितीया.
अस्तु अत्र आगतः अस्ति एकनिमिषः श्रूयते. अत्र अस्ति पश्यतु. अत्र दृश्यते अत्र इदम् इति प्रातिपदिकं खलु. पुल्लिङ्गे किमस्ति? लेट् अस्ति हा. अयम् इमौ इमे प्रथमा.
अयम् इमौ इमे प्रथमा.
इमम् इमौ इमान् द्वितीया.
इमम् इमौ इमान् द्वितीया.
पुनः एकवारम् इमौ इमम् इमौ
इमौ इमान् द्वितीया.
सो वाट् ऐ वास् सेड् इस् जस्ट् नौ सेयिङ्ग् इमान् खलु. इमान् बालान् खलु. बालान् किमस्ति? बालान् इस् द्वितीयाविभक्ति बहुवचनं खलु. यथा रामं रामौ रामान् अत्र पश्य. रामं रामौ रामान्. बालं बालौ किं भवेत्? बालान् बालान् द्वितीया बहुवचनं. तर्हि इमान् बालान् दृष्ट्वा, वाट् वास् मै सेण्टेन्स्? लुकिङ्ग् एट्
बालान्
दृष्ट्वा. इमान् बालान् दृष्ट्वा अस्माकं वाक्यं किं भवेत्? वाट् शुड् बि अवर् सेण्टेन्स् बै लुकिङ्ग् एट् देम्? because you are not walking there, they are walking, right? Yuyam bhramyatha, yuyam gachatha. Hello, kim bhavet vakyam? You all, right? Yuyam gachatha. Yuyam gachatha. Now expand the sentence. Yuyam achayanaya. Yuyam
achayanaya.
Pathalayam.
Pathalayam gachatha.
Gachatha. Avagatam? Tri vakyam punah vada. Yuyam achayanaya.
Yuyam
adhyayanaya gachatha.
अरे पुत्र पाठालयं
पाठालयं गच्छथ
गच्छथ खलु यूयं गच्छथ इदानीम् अहं वाक्यं पुनः वदामि इमान् बालान् से प्लीज रिपीट् आफ्टर् मी इमान्
बालान्
दृष्ट्वा वयं किं वदामः वयं किं वदामः
वयं किं वदामः
सो वाट् विल् बि अवर् सेण्टेन्स् नो लेट् अस् सेट् किं यूयम् अध्ययनाय पाठालयं
यूयम् अध्ययनाय पाठालयं गच्छथ
अवगतम् अर्णा अनिक्य इन् नौ देर् आर् मेनि बाय्स् रैट् चिन्तयतु द्विवचनमस्ति देर् आर् ओन्लि टु बाय्स् हु आर् गोयिङ्ग् इमेजिन् लेट् अस् इमेजिन् देट् ओन्लि टु बाय्स् आर् गोयिङ्ग् देन् वाट् शुड् बि अवर् सेण्टेन्स् द्विवचने किं भवेत् पश्य बहुवचने यूयं द्विवचने किं भवेत् युवां खलु राम्यथः युवां गच्छथः खलु तर्हि वाक्यरचना कुर्वन्तु युवां
युवाम् अध्ययनाय पाठालयं गच्छथः
खलु
गच्छथः
सि इमेजिन् नौ ओन्लि टु बाय्स् आर् गोयिङ्ग् तर्हि किं भवेत् वाक्यं युवां से
युवाम् अध्ययनाय पाठालयं गच्छथः
आं गच्छथः Now imagine that only one boy is going. Tada vakyam kim bhavet? Tvam kim bhavet?
Tvam adhyayanaya patalayam gachasi.
Uttamam. Tvam kim bhavet? Gachasi. Kalu atra. Tvam bhramyasi. Tvam gachasi. Tvam vrajasi. Now let us do it reverse. Now what will be the vakya of the bala ayam balah swayam kim vadati what he will say himself about him aham kim vadati adhyayanaya
pathalayam gachhami
aham gachhami arna avagatam now imagine two boys are going what they will say about themselves both of them
avam
avam atra pashya
avam
aham anantram kim asti avam
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 adhyayanaya pathalayam
gachhavah अवगतं पुनः वदतु वाक्यं वाट् विल् बि द वाक्यम् आफ़् दीस् टु बाय्स् आवाम्
आवाम् अध्ययनाय पाठालयं गच्छावः
उत्तमम् इदानीम् आल् आफ़् देम् अगुन् वाट् विल् बि द सेण्टेन्स् सेड् बै आल् आफ़् देम् वयम्
अध्ययनाय पाठालयं गच्छामः
अवगतम् इदानीम् अस्य विषये एव ओके इमेजिन् देर् इस् वन् कपि ओके सो एकः एव कपि स्वस्य विषये किं वदति वाट् विल् हि से अबौट् हिम्सेल्फ् अहं भोजनाय
उद्यानं व्रजामि
खलु अहं व्रजामि नौ दिस् इस् द वाक्यं सेड् बै वन् कपिः खलु कपिः कपी कपयः नौ इफ् देर् आर् टु मङ्कीस् वाट् दे विल् से अबौट् देम् सेल्स् अहम् आवां खलु
आवां भोजनाय उद्यानं
व्रजामः बहवः द्विवचनम् इट् इस् वः बहुवचनं मह पुनः अर्णा पुनः वाक्यम् आवां द्विवचनं भोजनाय
उद्यानं
क्रियापदं किं भवेत् व्रजा किं भवेत् व्रजावः खलु सि अर्णा अत्र पश्य अहं भ्राम्यामि आवां भ्राम्यावः आवां व्रजावः खलु अत्र पश्यतु आवां व्रजावः अस्ति खलु द्विवचने सो द टु मङ्कीस् वाट् दे विल् से अबौट् देम् सेल्स् आवां पुनः वद वाक्यम् भोजनाय उद्यानम् व्रजावः इदानीं सर्वे कपयः किं वदन्ति वाट् विल् आल् आफ् देम् से वयं
भोजनाय उद्यानं
व्रजामः उत्तमम् अर्णा वद किं वद वयं
भोजनाय उद्यानं
व्रजामः अर्णा यु हेव् नाट् रिटन् दीस् टेबल्स् इन् लेखन पुस्तिका हेव् यु नाट् रिटन् सो ऐ हेव् टोल्ड् दिस् लाङ्ग् बेक् अर्णा देट् यु हेव् टु रैट् दिस् इन् युर् नोट्बुक् इन् द वर्गः युर् लेखन पुस्तिका शुड् बि इन् फ्रण्ट् आफ् यू बिकास् हौ मेनि टैम्स् ऐ बि स्किपिङ्ग् फ्रम् वन् स्लैड् टु द अदर् स्लैड् डिफ्रेण्ट् बिकास् डिफिकल्ट् फोर् मी रैट् देट् इस् वै ऐ हेव् टोल्ड् यु टु रैट् दिस् तालिका टेबल्स् इन् द लेखन पुस्तिका You have not written it down yet, Arna?
No.
No. So today will you write it down? So what is your work today? Write these tables so that next varga, when I ask you some question, it should be in front of you. Avagatamva. Arna. So vakyam is what now? Vrajavaha. Kalu, vayam? Vrajavaha. Now say the vakyam. What will be the monkey saying for themselves?
Vayam. वयं भोजनाय उद्यानं
व्रजामः उत्तमं नौ वि विल् जस्ट् वित् दिस् स्लैड् विल् फिनिश् ओके शुड् ऐ केन् ऐ टेक् अनदर् वन् आर् टु मिनिट्स् इस् इट् फैन् अलेख्य फैन् समस्या नास्ति खलु विल् जस्ट् फिनिश् दिस् ओके सो वेन् वी आर् लुकिङ्ग् एट् द कपिः कपयः सपोज् ऐ एम् एबल् टु सी ओन्लि वन् कपि ओके इमेजिन् ऐ एम् एबल् टु सी ओन्लि वन् सो लुकिङ्ग् एट् हिम् वट् ऐ विल् से वट् ऐ विल् से त्वं वट् शुड् ऐ से भोजनाय व्रजसि अर्णा वाक्यं पुनः वद त्वं लुकिङ्ग् एट् वन् मङ्की विल् से त्वं
भोजनाय उद्यानं व्रजसि
उत्तमं व्रजसि नौ लुकिङ्ग् एट् टु वाट् वि विल् से आफ्टर् त्वम् इस् वाट् युवां खलु
युवां
भोजनाय
उद्यानं
रजतः
रजतः खलु सी हियर् किं भवेत् युवां रजतः खलु इदानीं बहुवचने वि आर् लुकिङ्ग् एट् आल् आफ् देम् वाट् यु शुड् से वाक्यं वद
युवां
भोजनाय
युवां भोजनाय उद्यानं रजति
Anita, look at your tables once again. See, you did a mistake. It is not yuvam. It should be yuyam. What it should be, Bahuvachane?
Yuyam.
Rajatha. Hello. Kimbhavet, you all are venturing. You all are moving. Hello. Going. You all are going. Then punha vakyam vada. Yuyam.
Yuyam. यूयं भोजनाय उद्यानं
रजतः
रजतः
हलो मध्यमपुरुषे यूयं व्रजथ ओके लेट् मी जस्ट् टेस्ट् नौ इफ् यु हेव् गाट् इट् ओके नौ लुकिङ्ग् एट् दिस् बाला ओके लुकिङ्ग् एट् दिस् बाला द वाक्यं फार् दिस् बाला इस् वी आर् आन् द रैट् अत्र दक्षिणदिशि अस्ति रैट् सैड् So, looking at her, what we will say? Tvam, you, that is tvam, sasyaya, jalam,
sasyaya, jalam,
yachasi. Hello?
Yachasi.
What she will say for herself? Aham, sasyaya,
sasyaya,
jalam, Arna, have you got it now that you have to have this table in front of you? Have you got it? So when it is aham brajami, aham yachami, aham brahmyami, aham gachami. Avagatam? So you please write this table in your Lekhan Pustika after the Varga. Watch at the, look at the recording. And you have this, okay. Bhavatu. I think on the WhatsApp Gana, Arna, WhatsApp Gane Aham Preshutivati Sarvam. Just go back in the history. In the WhatsApp Gana, I have sent this Talika. I have sent this content of the table. Arna, just go ahead before and see and write it down. तर्हि तर्हि इयं बाला किं वदति इयं बाला खलु इयं बाला वदति अहं सस्याय जलं यच्छामि एण्ड् द बाला बिलो द बाला हू इस् बिलो हर् शी इस् गिविङ्ग् वाटर् टु मेनी प्लाण्ट्स् तर्हि सस्येभ्यः तर्हि वाट् शी विल् से अहं सस्येभ्यः जलं यच्छामि Yachami. And when we are looking at her, and when we are looking at her, what we will say? Tvam sasyebhyaha jalam yachasi.
Jalam
yachasi.
Jalam
yachasi. Tvam sasyebhyaha jalam yachasi. Okay, what we have done is, we have done this abhyasa before, but only in a different perspective, right? Pashatu. Gajaha aharaya kadali phala lunchati. Atra kadali kim bhavet? Kadali dvitiya vibhakti rupam bhalo? Kadali phalam bhavet kalo? What should be the correction? Kadali? Can you suggest? What should be the vakyam? फलं खलु नपुंसकलिङ्गे द्वितीयविभक्ति एकवचनं फलं तर्हि गजः atrapi, what should be the, I have left this incomplete. Can you tell me what should be here? Gaja va gajaha, what should be? Prathama vibhakti ekvachana? Gajaha, khalu? Jaha. Tari gajaha, ahara, atra kim bhavet? Chaturthi vibhakti rupam. Pratipadikam ahara. Atra kim bhavet?
Aharaya.
Aharaya. Tari? Raya. Khalu? Aharaya. Agre, vakyam purnam vada?
Aharaya.
Kadali phalam?
Kadali phalam.
Lunchati.
Lunchati.
If it is one gajaha. Khalu? This vakyam is correct if it is one gajaha. But there are two gajaha. Can you see one head is in here? This is one gajaha. Dvitiha gajaha. Three gajadvayam. Kati gajaha? Gajadvayam. So what should be the vakyam? Gajaha, divachani kim bhavet? Gajaha, gajau, hello? Jau, J-A, Tari gajau, vakyam, punha vada. Gajau.
Aha,
raya.
Aha, raya.
No, tada, this is the same. Aha, raya eva, hello? What is the reason? Aha, raya. Gajau aharaya.
Gajau aharaya.
Kadali phalam.
Lunchati.
Nana, kriyapadam kim bhavet? Dvivachanam kriyapadam kim bhavet?
Lunchati. Lunchataha.
Lunchataha. Khalu? Lunchataha. Avagatam? Tari vakyam kim asti? Gajau aharaya.
Lunchataha
means they are plucking, they are peeling it away from that, this, right? From that, this halan. Idanim, itopekam prashnamasit. Just now, Alekya said, right? Should this be only aharaya? The vachanam for this should not change. Answer is why? Let me explain. Here, they are taking something, right? They are taking from the plant, right? The fruit is taken by them from the plant. So they are not giving anything. Here in this purvam, purvasmin chitri kim asit, the bala is giving water, right? There is a dana kriya, right? She is giving. There is a dana. Arna, alekya, avagatamva. She is giving. And therefore when you are giving, if she is giving for one plant, kimbhavet sasyaya. If she is giving for two plants, sasyaya sasyabhyam. You know? And if you give for many plants, sasyepya. Avagatamva. If it is a dana kriya. But if you are taking something, if you are getting something, if you are going to get some labha, then vibhakti rupam is still chaturthi, but it will be what? Jatha balakaha adhyayanaya. Look here. In this vakyam, what was the sentence? Balakaha adhyayanaya. This is also Chaturthi Vibhakti Rupam, khalo? Pathalayam gachanti. Here, they are going to get some knowledge, right? They are going to get. They are not giving anything. There is no dana kriya here. They will get something. They will get a labha. So here, the question is what? When you are going to get something, the question is what? Kimartham. Hello? I have told this before, right? Do you remember? If you are going to get something, the question is kimartham. But if you are giving something, then the question is what? Kimartham. Then the question is what? Ekvachane kasmai, dvivachane kasmai kaphyam, dvivachane kaphyam, bahuvachane kephyah. Hello? Bahuvachane kephyah. There is no kimartham here. Question is what? Iyam bala kasmai jalam yachati. Whom she is giving? Kasmai. Kasmai sasyaya. Kasmai kaphyam. Kaphyam, sasyaphyam. Kephyaha, sasyephyaha. Hello? But here, what is the question here? Look here. Balakaha, kimartham pathalayam gachanti. Why? The question is kimartham. Avagatamva? Answer is adhyayanaya. Anna, alekya, avagatamva? Difference? So here also, alekya, so here also, gajau, kimartham kadali phalam linchataha? ahaaraya, to get food, to eat, right? So here, the prashna, what is the prashna vachaka vakyam? Gajau, kimartham, kadali phalam, lunchataha. Uttaram, gajau, ahaaraya, kadali phalam, lunchataha. There is no dana kriya here. Avagata? So, should we stop here? शान्तिमन्त्रेण विरमामः अर्णा शान्तिमन्त्रं गातुं शक्नोति वा अर्णा गायतु
ॐ पूर्णमदः पूर्णमिदः पूर्णात् पूर्णमुदच्यते पूर्णमादाय पूर्णमेवोच्यते ॐ शान्ति शान्तिः
हरिः ओम् श्रीगुरुभ्यो नमः तर्हि एकनिमिषः